एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अद्य नेपाले विशेष नियमेन निष्ठ्या च छठ पर्व समायोज्यते। कार्तिक शुक्ल चतुर्थ्याम् स्नात्वा शुद्धाचरणे स्थित्वा च अद्य षष्ठ्याम् तिथौ सूर्याय अज्ञप्रदान पुरस्सरम् षष्ठी पर्वणः आयोजनम् विधीयते। षष्ठ्याम् तिथौ विधीयमानत्वात् षष्ठी छष्ठी इति कृत्वा अपभ्रंशतः नेपाल्याम् छठ इति अस्य पर्वणः नाम सञ्जातमिति अनुमीयते। समाजे पर्वेदम् छठीमैया पूजा नाम्ना च प्रसिद्धमस्ति। अस्य पर्वणः अवसरे जनकपुर वीरगंज सहितानाम् बारा पर्सा रौतहट प्रवृत्ति जनपदानाम् नदी ह्रद पुष्करिणी प्रवृत्ति जलाशयाः नववधूरिव विभूषिताः सन्ति। पौराणिक ग्रन्थस्य महाभारतस्य अनुसारेण द्रौपद्या सहितानाम् पञ्चानाम् पाण्डवानाम् अज्ञातवासस्य अवधौ तस्य गुप्तवासस्य सफलतायै सूर्यदेवः आराधितः आसीत्। तस्मिन् समये पाण्डवाः विराटराजस्य प्रासादे गुप्तवासे आसन् इति उल्लिखितम् वर्तते। लोककथनस्य अनुसारेण तस्मादेव समयात् छठपर्वणः समायोजनस्य परम्परा प्रारब्धा वर्तते। छठपर्वणः उपासकाः पूर्वे द्युः पञ्चम्यां तिथौ आदिवसम् निराहारम् स्थित्वा खरना इति शर्करायाः पायसम् खादन्ति। व्रतालवः भगवतः सूर्यस्य प्रसादत्वेन ठकुया भूसवा प्रवृत्तिनि मिष्ठान्नानि निर्मान्ति। सायम् नद्यादि जलाशयेषु स्नात्वा अस्तमितम् सूर्यम् अर्घप्रदानेन पूजयन्ति। आरात्रम् भजन कीर्तनादिभिः भगवन्तम् सूर्यम् स्तुवन्ति च। अद्य षष्ठ्याम् तिथौ उपोष्य स्व सप्तम्याम् तिथौ उदीयमानाय सूर्याय पुनः अर्घ्यप्रदान पुरस्सरम् पर्वेदम् सम्पन्नम् भवति। अस्मिन् पर्वणि उपोष्य सूर्य पूजनेन सन्तान प्राप्तिः सुख समृद्धिलाभः चर्मरोगनाश्च भवन्तीति धार्मिक विश्वासः समाजे चिराद् प्रतिष्ठितो वर्तते। अवसरेऽस्मिन् राष्ट्रपतिना रामचन्द्र पौडेलेन प्रधानमन्त्रिणा केपी शर्मा ओलिना च सह उच्चस्तरीय नेतृभिः शुभकामना सन्देशाः व्यक्ताः वर्तन्ते। एतदवसरे अद्य आराष्ट्रम् सर्वकारेण सार्वजनिकावकाशः प्रदत्तोऽस्ति। अमेरिका देशे परह्यः मंगलवासरे सम्पन्ने राष्ट्रपतेः निर्वाचने रिपब्लिकन पार्टी इति दलस्य प्रत्याशी डोनाल्ड ट्रम्प द्वितीयवारम् विजयी सम्भूतो वर्तते। ट्रम्प इत्ययम् डेमोक्रेटिक पार्टी इति दलस्य प्रत्याशिनीम् उपराष्ट्रपतिम् कमला ह्यारिस इतिमाम् पराजित्य अमेरिका देशस्य सप्तचत्वारिंशे राष्ट्रपतौ निर्वाचितोऽस्ति। एसोसिएट संचार माध्यमस्य अनुसारेण रिपब्लिकन पार्टी इति दलस्य प्रत्याशिना ट्रम्प इत्यनेन सप्तसप्तत्युत्तर शतद्वयम् वैद्युत मतानि प्राप्तानि सन्ति। डेमोक्रेटिक पार्टी इति दलस्य प्रत्याशिना ह्यारिस इत्यनया चतुर्विंशत्यधिक शतद्वयम् मतानि प्राप्तानि वर्तन्ते। अमेरिका देशीय राष्ट्रपतौ निर्वाचनाय समग्रतः अष्टात्रिंशदुत्तर पञ्चशते मतेषु न्यूनतोऽपि सप्तत्युत्तर शतद्वयम् वैद्युत मतानि प्राप्तव्यानि भवन्ति। ट्रम्प इत्यनेन प्रतिशतम् एकपञ्चाशत् अर्थात् सप्तकोटयः एकादशलक्षाणि त्र्यशीतिः सहस्राणि च लोकप्रिय मतानि प्राप्तानि सन्ति। ह्यारिस इत्यनया षट्कोटयः द्वाषष्टिः लक्षाणि एकपञ्चाशत् सहस्राणि च लोकप्रिय मतानि प्राप्तानि वर्तन्ते। रिपब्लिकन दल नेत्रा डोनाल्ड ट्रम्प इत्यनेन निर्वाचने विजयप्राप्तेः अनन्तरम् स्वस्य निर्वाचनाभियानस्य मुख्यालये उपस्थितान् समर्थकान् सम्बोध्य अद्य सर्वाधिकेषु महत्वपूर्णेषु एकम् दिनम् अस्ति इति उक्तम् वर्तते। सम्बोधनस्य क्रमे नेता ट्रम्प सीमव्यवस्थापनम् करिष्यते, देशम् एकताबद्धम् कृत्वा अग्रे वर्धिष्यते चेति प्रतिबद्धताम् अभिव्यज्यमानः। स्वस्य पत्न्यै मेलानिया इत्यनया सह परिवारस्य सदस्येभ्यः सम्पूर्ण शुभेच्छुक मतदातृभ्यश्च धन्यवादम् व्याहरत्। राष्ट्रपतिना रामचन्द्र पौडेलेन संयुक्त राज्य अमेरिका देशस्य राष्ट्रपतौ डोनाल्ड ट्रम्प इत्यस्य निर्वाचनमालक्ष्य तस्मै वर्धापन सन्देशः व्यक्तोऽस्ति। राष्ट्रपतिना पौडेलेन ह्य ट्वीटर सामाजिक सञ्जालस्य माध्यमेन ऐतिहासिक विजयप्राप्तिमालक्ष्य नेत्रे ट्रम्प इत्यस्मै वर्धापनम् विज्ञाप्य संयुक्त राज्य अमेरिका देशस्य राष्ट्रपतेः द्वितीय कार्यकालस्य पूर्ण सफलतायाः कामना विहितास्ति। राष्ट्रपतिना पौडेलेन राष्ट्रपति ट्रम्प इत्यस्य द्वितीय कार्यकाले नेपाल संयुक्त राज्य अमेरिका देशस्य सम्बन्ध अतिरिक्त सुदृढ़ भविष्यति इति विश्वास व्यक्तोस्ति। एवमेव प्रधानमन्त्रिणा केपी शर्मा ओलिना च अमेरिका देशस्य नवनिर्वाचिताय राष्ट्रपतये डोनाल्ड ट्रम्प इत्यस्मै एतदीय कार्यकाले नेपाल अमेरिका देशयो सम्बन्ध अतिरिक्त प्रगाढो भविष्यति इति विश्वासेन सफल कार्यकालस्य कामनया च सह वर्धापन सन्देश व्यक्तोस्ति। अमेरिका देशस्य पूर्व राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन अमेरिका देशीय सप्तचत्वारिंशे राष्ट्रपतो विजय प्राप्ते अनन्तरं तस्मै विश्वस्य नेतृभिः वर्धापनम् अभिव्यक्तमस्ति। भारतीय प्रधानमन्त्री नरेन्द्र मोदी, फ्रांस देशस्य राष्ट्रपति इम्यानुएल म्याक्रो, युक्रेन देशस्य राष्ट्रपति भोलोदिमिर जेलेम्स्की, इजरायल देशीय प्रधानमन्त्री बेन्यामिन नेतन्याहु, यूरोपीय संघस्य प्रमुख उर्सुला भाने डेर लेन, उत्तर एटलान्टिक सन्धि संगठनस्य प्रमुख मार्क रूट चेती विश्व नेतृभिः वर्धापन सन्देश प्रेषितो वर्तते। सर्वकारस्य कार्यम् अतिरिक्तं व्यवस्थितं प्रभावकारी च विधातुम् अष्टसदस्यीयं संयन्त्रं संघटितं वर्तते। नेपाली कांग्रेस नेकपा एमाले दलयोर्मध्ये सम्भूतायः सप्तसूत्रीय सहमते अनुसारेण सर्वकारस्य प्रभावकारितां वर्धयितुं सहजीकरणाय च केन्द्रीय स्तरस्य संयन्त्रं संघटितम् अस्ति इति नेकपा एमाले दलस्य प्रचार विभाग प्रमुख राजेन्द्र गौतमः ज्ञापयति। संयन्त्रे नेकपा एमाले दलात् वरिष्ठ उपाध्यक्ष ईश्वर पोखरेल, उप प्रधानार्थमन्त्री विष्णुप्रसाद पौडेल, महासचिव शंकर पोखरेल, उपमहासचिव विष्णु रिमालश्च वर्तन्ते। एवमेव नेपाली कांग्रेस दलात् उपसभापति पूर्णबहादुर खड्का, महामन्त्री गगन कुमार थापा, गृहमन्त्री रमेश लेखक, परराष्ट्रमन्त्री आर्जू राणा देउवा च वर्तन्ते। केन्द्रेण सहैव प्रदेशेषु जनपदस्तरे चापि संयन्त्रस्य संघटनाय पूर्व कार्यं विहितमस्ति इति प्रचार विभाग प्रमुख गौतमः सूचयति। राष्ट्रपतिः रामचन्द्र पौडेलः अजरबैजान देशस्य बाकु नगरे सम्पत्स्यमाने जलवायु परिवर्तन सम्बद्धे संयुक्त राज्य संघीय संरचना महासन्धेः पक्षराष्ट्राणाम् एकत्रिंशे सम्मेलने भागं ग्रहीतुम् अस्यैव कार्तिक मासस्य पञ्चविंशे दिवसे तत्र प्रस्थाता। अजरबैजान देशस्य राष्ट्रपतेः इलहम आलियव इत्यस्य निमन्त्रणायां सम्मेलने सहभागी भवितुम् राष्ट्रपतिः पौडेलः उच्चस्तरीय नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विदधानः बाकुनगरं प्रस्थास्यमानो वर्तते। राष्ट्रपतेः पौडेलस्य सप्तविंशे अष्टाविंशे च दिवसयोः सम्पत्स्यमाने उच्चस्तरीय सत्रस्य जलवायु कार्य शिखर सम्मेलने सम्बोधनस्य कार्यक्रमः निश्चितोऽस्ति। परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। सम्मेलनस्य क्रमे नेपालेन स्वस्य विषयेषु विश्वस्य ध्यानाकर्षणं विधातुं कार्तिकस्य अष्टाविंशे दिवसे राष्ट्रपतेः पौडेलस्य नेतृत्वे पृथक उच्चस्तरीय सत्रं सञ्चालयिष्यते। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ संचार सेवाम सहजाम विधातुम निर्दिशति। संचार मन्त्री गुरूङ मनाङ पत्राचार कार्यालयस्य अनुगमनम विदधान जनपदस्य सर्वेषु क्षेत्रेषु संचार सेवाम सहजाम विधातुम निर्दिशत। एवमेव जनपदवर्तिनाम सर्वकारीय कार्यालयानाम अनुगमनस्य पश्चात् संचार मन्त्री गुरूङ बेसी शहर चामे मार्गस्य निर्माणाय तीव्रताम प्रदातुम अन्वरुणत। ऊर्जा जलस्रोत सेचन मन्त्री दीपक खड्का नेपालस्य ऊर्जा क्षेत्रस्य विकासाय स्वस्य भारत भ्रमणम् उपलब्धिमूलकं सम्भूतमस्तीति निश्चिनोति। भारतस्य नयाँ दिल्ली स्थाने सम्पन्ने अन्तर्राष्ट्रिय सौर्य गठबन्धन सम्मेलने भागं गृहीत्वा ह्य सायं नेपालं प्रत्यागत मन्त्री खड्का त्रिभुवन विमानस्थले आयोजिते पत्रकार सम्मेलने पञ्चेश्वर अरूण प्रवृत्तिनाम आयोजनानाम यथाशीघ्रम अग्रे वर्धनस्य विषये भारतेन अनुकूल विमर्शनम सम्भूतमिति असूचयत। इति समाचारः।